गणानान्त्वा गणपतिगुं हवामहे कविं कवीणामुपमश्रवस्तवम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन्नोतिभिः सेदसादनम् प्रणो देवे सरस्वते वाजेभिर्वाजिनेवते धेनामवित्र्ययवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतो तैषभे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयिषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवत जानो रुद्रमृडया या ते रुद्रशिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशेः यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाङ्गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवे न वचसा त्वा गिरिशाच्छा वदामसे यथा नः सर्वमिज्जगद यक्ष्मगुं सुमनासत् अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहेगश्च सर्वाञ्जम्भयन् सर्वा आशयातु धान्यः असव्यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षु श्रिताः सहस्रशो वैशागुम् हेड इमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उदैरम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अधोये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्रियोर्जाम् याश्च ते हस्त इषवः पराता भगवो वपा अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषुधे निषेव्य शल्याणाम् मुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणभागुम् उत अनेशन्नस्येशव आभुरस्य निशङ्गतिः या ते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाया नातताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय త్రయంబకాయ త్రిపురాంధకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుం జయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యబాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమ సస్పింజరాజత్విషేమతే పధీనాం పతయే నమో నమో బబ్లుషాయ వ్యాధినేన్నానాం పతయే నమో నమో హరికేశాయోపవేతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తత క్షేత్రాణాం పతయే నమో నమ సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయాక్రందయతే పత్రీణాం పతయే నమో నమ కృత్స్న వేతాయ ధావతే సత్వనాం పతయే నమః. నమః సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమ ककुभाय निषंगिणे एस्तेनानां पतये नमो नमो निषंगिण इषुधिमते तस्कराणां पतये नमो नमो वंचते परिवंचते स्थायूनां पतये नमो नमो निचेरवे పరిచరాయారణ్యానాం పతయే నమో నమ శ్రీకాభిభ్యో జిగాగుం సద్భ్యోముష్ణతాం పతయే నమో నమోసి మద్భ్యో నక్తం చరద్భ్య ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషు మద్భ్యో ధన్వావిభ్యశ్చ వో నమో నమ ఆతన్వానేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయచ్చభ్యో విసృజభ్యశ్చ వో నమో నమోస్యభ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమ స్తిష్ఠద్భ్యో ధావద్భ్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః. నమ ఆవ్యాధినేభ్యో విభిద్యందేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రిగుంహదేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సవతిభ్యశ్చ వో నమో నమో భ్రాతేభ్యో భ్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః శుల్లకేభ్యశ్చ వో నమో నమో రథిభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనాభ్యః సేనానిభ్యశ్చ వో నమో నమః. శత్రుభ్యః సంగ్రహేతృభ్యశ్చ వో నమో నమః తక్షభ్యోరథకారేభ్యశ్చ వో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్మకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమ శ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ చితికంఠాయ చ నమః కపర్దినే చ ప్త్యుప్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపివిష్టాయ చ నమో మీనుష్టమాయ శేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో మృగతే చ పశ్యేయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాచిరాయ చ నమః శీఘ్రియాయ చ శేభ్యాయ చ నమః ఊర్మ్యాయ చ వస్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వేప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్నియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కళ్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చ వభిందతే చ నమో వర్మిణే చ వరూథినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హరణ్యాయ చ నమో దృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషు ధీమతే చ నమః తీక్ష్ణే చ వేషాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః శూద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైశంతాయ చ నమః కోప్యాయ చ భట్యాయ చ నమో వశ్యాయ చ పశ్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈధ్రియాయ చ తప్ప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ రుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే బధాయ చ దూరే బధాయ చ నమో హంద్రే జహనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయో భవే చ నమః ശങ്കരായ ച മയസ്കരായ ച നമ ശിവായ ച ശിവതരായ ച നമസ്തേർത്യായ ച ഗോല്യായ ച നമ ഭാര്യായ ച ഭാര്യായ ച നമ പ്രതരണായ ചോത്തരണായ ച നമ ആട്ടാദ്യായ ചാലാദ്യായ ച നമ ശഷ്പ്യായ ച ഭേന്യായ ച നമ സിഗത്യായ ച പ്രവാഹ്യായ ച നമ ഹിരണ്യായ ച പ്രപഥ്യായ ച നമ കിഗുംശിരായ ച ക്ഷയണായ ച നമ കപർദിനേശ പുലസ്തയേ ച നമോ ഗോഷ്ട്യായ ച ഗൃഹ്യായ ച നമ സ്തൽപ്യായ ച ഗേഹ്യായ ച നമ കാട്ട്യായ ച ഗഗ്വരേഷ്ഠായ ച നമോ ഹൃദയായ ച നിവേശ്യായ ച നമ പാഗുംസഭ്യായ ച രജസ്യായ ച നമ ശുഷ്ക്യായ ച ഹരിത്യായ ച നമോ ലോപ്യായ ചോലപ്യായ ച നമ ഊർജ്യായ ച സൂർമ്യായ ച നമ പര്യായ ച പർണസദ്യായ ച നമോ ഭഗുരമാണായ ച ഭിഗ്രതേ ച നമ ആഖിതതേ ച പ്രഖിതതേ ച നമോ വക്കിരികേഭ്യോ ദേവാനാഗും ഹൃദയേഭ്യോ നമോ വിക്ഷേണകേഭ്യോ നമോ വിചിന്മത്കേഭ്യോ നമ ആനിർഹതേഭ്യോ നമ ആമീഭക്കേഭ്യഃ ദ്രാപേ അന്ധസസ്പദേ ദരിദ്രന്നീലലോഹിത ഏഷാം പുരുഷാണാം ഏഷാം പശൂനാം മാഭേർമാ രോമോ ഏഷാം കിഞ്ചന മമത് യാതേ രുദ്ര ശിവാ തനോ ശിവാ വിശ്വാഹ ഭേഷജേ ശിവാ രുദ്രസ്യ ഭേഷജേ തയാനോ മൃഡ ജീവസേ ഇമാഗും രുദ്രായ തവസേ ഗവർദ്ധിനേ ക്ഷയദ്വീരായ പ്രഭരാമഹേമതിം യഥാ നശമസദ്വിപദേ ചതുഷ്പദേ വിശ്വം ദുഷ്ടം ഗ്രാമേ അസ്മിന്നനാതുരം മൃഡാനോ രുദ്രോതനോ മയസ്കൃതി ക്ഷയദ്വീരായ നമസാ വിധേമതേ യച്ചം ജയോശ്ച മനുരാഗജേ പിതാ തദശ്യാമതവ രുദ്ര പ്രണീതോ മാനോ മഹാന്തമുതമാനോ അർഭകം മാന ഉക്ഷന്തമുതമാന ഉക്ഷിതം മാനോ വധേ പിതരം മോത മാതരം പ്രിയമാന തനുവോ രുദ്രരീരിഷഃ മാനസ്തോകേതന ഹേമാന ആയുഷി മാനോ ഗോഷു മാനോ അശ്വേഷുരീരിഷഃ വീരാന്മാനോ രുദ്രഭാമിതോ വധേർ അവിഷ്മന്തോ നമസാ വിധേമതേ ആരാത്തേ ഗോഘ്നമുത പൂരുഷഗ്നേ ക്ഷയദ്വീരായ സുംനമസ്മേ തേ അസ്തു രക്ഷാജനോ അധിജദേവ ബ്രൂഹ്യധാചര ശർമയക്ഷദ്വിപരുഹാ സുഹിശ്രുതം ഗത്തസദം യുവാനം മൃഗന്ന ഭീമമുപഹത്നുമുഗ്രം മൃഡാചരിത്രേ രുദ്രസ്തവാനോ അന്യന്തേ അസ്മന്നിവ പന്തു സേനാ പരിണോ രുദ്രസ്യ ഹേതുർവൃണക്തു പരിത്വേഷസ്യ ദുർമതിരഘായോ അവസ്ഥിരാ ഭഗവദ്ഭ്യസ്തനുഷ്വമേഡ്വസ്തോകായതനയായ മൃഡയാ മീഡുഷ്ടമശിവതമ ശിവോ നഃ സുമനാ ഭവ പരമേ വൃക്ഷ ആയുധം നിധായ കൃത്യം വസാ നമാചര പിടാകം ബിഭ്രസാഗഹേ വികിരിട വിലോഹിതടമസ്തേ അസ്തു ഭഗവഃ यास्ते सहस्रगुं हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवपराचेनामुखाग्रदे सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् तेषागुं सहस्रयो जने वधन्वानि तन्मसे अस्मिन्महत्यर्णवेन्दरिक्षे भवा अधे नीलग्रीवाचितिकण्ठा शर्वाधः क्षमाचराः नीलग्रीवाचितिकण्ठादिवगुं रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिगासक्कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु विपदो जनान् ये पथाम् प्रतिरक्षय ऐलभृदायव्युधः ये तीर्थाणि प्रचरन्ति शृगावन्दो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुं सहस्रयो जने वधन्तानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणादश प्रदेशीर्दशो देशीर्दशोऽर्ध्वास्तेभ्यो नमस्ते नो मृळयन्तु देयम् दिष्मो यश्च नो द्वेष्टितम् वोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् वृष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वाभुवनाभिवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुधम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो माविशान्तकः तेनान्येनाप्याजस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु यस्विषु सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरन्धुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगु शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ शञ्च मे यश्च मे प्रियम् च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वत्स्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महच्च मे संवित् च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे सेरं च मे लयश्च मृतं च मे मृतं च मे यक्ष्मं च मे नामयश्च मे जेवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुखं च मे शयनं च मे सोषा च मे सुदिनं च मे ॐ शान्ति शान्ति शान्तिः ॐ आसत्ये नरजसा वर्तमानो निवेशयन्नमृतम् मर्त्यम् च हिरण्ययेन सविता रथेना देवो याति भुवनापि पश्यन्न अग्निम् धूतम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य शुक्रतुम् एषा वीशे पशुपतिः पशूनाम् च दुष्पदा हुत च द्विपदा निष्क्रेतोऽयम् यज्ञियम् भागमेतु रायस्पोषा यजमानस्य सन्तु ॐ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः ॐ आप्याय स्वसमेतु ते विश्वतः सोमवृष्णियम् भवावाजस्य सङ्गते अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा अग्निम् च विश्वशम्भुभवापश्च विश्वभेषजीः गौरीभिमाय सलिलाभितक्षत्ये कपदी द्विपदी सा चतुष्पदी अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॐ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपागुम् रेतागुंसि जिन्वति स्योना पृथिविभवा नृक्षरा निवेशनि यच्छा नः शर्म सप्रथाः क्षेत्रस्य पतिना वयगुम् हितेनेव जयामसि गामश्वम् पोषयित्वा सनो मृडातीदृशे ॐ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः ॐ उद्भुद्य स्वाग्ने प्रतिजागृत्येन विष्टा पूर्ते सगुम् सृजेथा मयम् च पुनः कृण्वग्स्त्वा पितरम् युवानमन्वातागुम् श्रीत्वयितन्तुमेतम् इदम् विष्णुर्विचक्रमे त्रेधानि दधे पदम् समूढमस्य पागुम् सुरे विष्णो नराटमसि विष्णो पृष्ठमसि विष्णो श्रप्ते स्थो विष्णो स्यूरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॐ बृहस्पते अतियदर्यो अर्हाद्युमद्विभाति क्रदतु मज्जनेषु यद्दीद यच्च वसत्त प्रजातदस्मासु द्रविणम् धेहि चित्रम् इन्द्रमरुत्व इह पाहि सोमम् यथा शार्याते अपि वस्सुतः स्यात् तव प्रणीति तव शूर शर्मन्नाविवासन्ति कवयः सुयज्ञः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विसेवतः सुरुचो वेन आवह स बुद्निया उपमा अस्य विष्ठा सदश्च यो निमसतश्च विवः ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः ॐ प्रभः शुक्राय भानवे भरद्वगुं हव्यं मतिं चाग्नये सुपूतम् यो दैव्यानि मानुषा धनूगुं शन्तर्विश्वानि विद्मनाजिगाति इन्द्राणि मासु नारिषु सुपत्नी महवश्रवम् न ह्यस्या अपरञ्जन जरसामरथे पतिः इन्द्रम् वा विश्वतस्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये शय्योरभिस्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु भयग्स्यापतयोरहीला इमं यमप्रस्तरबाहि सीदाङ्गिरोभिपितृभिः संविधानः आत्मा मन्त्रा कविशस्ता वहन्त्वे नाराजन् हविषामादयस्व ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्चराय नमः ॐ कयानश्चित्र आभुवधूति सदा वृधः सखा कयाशचिष्ठया वृता आयङ्गौ पृश्निरक्रमेदसनन्मातरम् पुनः पितरम् च प्रयन्सुवः यत्ते देवी निररुतिरा भवन्धदामग्रीवा स्वविचर्त्यम् इदम् ते तद्विश्राम्यायुषो न मध्या तथा जीव पितुमद्धि प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः ॐ केतुम् कृण्वन्न केतवेपेशो मर्या अपेशसे समुषद्भिरजा यथा ब्रह्मा देवानाम् पदवे कवीना मृषिर्विप्राणाम् महिषो मृगाणाम् श्येनो गृध्रा नागस्वधिर्वणा नागु सोमः पवित्रमत्येतिरेभन्न सचित्रचित्रम् चितयन् तमस्मे चित्रक्षत्रचित्रतमम् वयोधाम् चन्द्रम् रयिम् पुरुवीरम् बृहन्तम् चन्द्रचन्द्राभिर्गृणते युवस्व ॐ अधिदेवता प्रत्यधिदेवता सहितेभ्यः केतुभ्यो नमः ॐ आदित्यादिनवग्रहदेवताभ्यो नभो नमः ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह ताम् महावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् विन्देयम् गामस्वम् पुरुषाणाम् अश्वपूर्वानतमद्य हस्तिनाद प्रबोधिनी श्रियम् देवीमुपक्वये श्रीमा देवीर्जुषताम् काम् सोऽस्मिताम् हिरण्य प्राकारमाद्राम् जलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपक्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजस्तामुदारा ताम पद्मिनीमीं शरणमाम प्रपद्ये अलक्ष्मीर्मे नश्यताम त्वां वृणे आदित्यवर्णे तपसो दिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य बलानि तपसानुदन्तु माया तरायाश्च बाह्या अलक्ष्मी उपैतु माम् देवसखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् ददातु मे युत्पिपासामलाम् ज्येष्ठामलक्ष्मी नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वानिर्णुद मे गृहात् गन्धद्वाराम् दुरादर्शाम् नित्यपुष्टाम् करेषिणीम् ईश्वरे कुम् सर्वभूतानाम् तामिमोपक्वये श्रियम् मनसत्काममाकोतिम् वाच सत्यमशेमहि पशूनाम् रूपमन्नस्य महि श्रेश्रयताम् यसः कर्दमेन प्रजा भूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् आपसृजन्तु स्निग्धानि शिक्ले तव समे गृहे निच देवी मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्महीम् लक्ष्मीम् जातवेदो महावः आर्द्राम् यः करिणीम् यष्टिम् सुवर्णाम् हेममालिनीम् शौर्याम् हिरण्महीम् लक्ष्मीम् जातवेदो महावः महावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वान्विन्देयम् पुरुषानहम् यस्योचि प्रयतो भूत्वा जोयादाज्यमन्वहम् श्रियम् पञ्चदशम् च श्रीकामः सततम् जपेत् पद्मानने पद्म ऊरु पद्माक्षे पद्मतम् भवे त्वम् माम् भजस्व पद्माक्षि येन सौख्यम् लवाम्यहम् अश्वधायि गोधायि धनदायि महाधने धनम् मेजुषताम् देवी सर्वकामाश्च देहि मे पुत्रपौत्रधनम् धान्यम् हस्तस्वादिगवेरथम् न जानाम् भवसि मात आयुष्मन्तम् करोतु मा धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैनते यसोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः न क्रोधो न च मात्सर्यम् न लोभो न शुभामतिः भवति कृतपुण्यानाम् भक्तानाम् श्रीसोक्तम् जपेत् सदा वर्षन्तु ते विवावरि दिवो अम्रस्य विद्युतः रोहन्तु सर्वबीजान्यवः ब्रह्म द्विषो जहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षे विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मम् मयि सन्निधस्त्व यासा पद्मासनस्ता विपुलकटितटे पद्मपत्रायताक्षे गम्भीरावर्तनाभिस्तनभरनमिता शुभ्रवस्त्रोत्तरीया
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितै स्नापिता हे मकुम्भै नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीं क्षीरसमुद्रराजतनया श्रीरङ्गदामेश्वरे दासीभूत समस्तदेववनितां लोकैकदीपां कुराम् श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्र गङ्गाधराम् त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्द प्रियाम् सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मी सरस्वती श्रीलक्ष्मी वरलक्ष्मी सप्रसन्ना मम सर्वदा भरां कुशोपाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्तां बालार्ककोटिप्रतिभां त्रिनेत्रां भजेऽहमम्ब्यां जगदीश्वरीम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्धसाधिके शरण्ये त्र्यम्बके देवे नारायणि नमोऽस्तु ते महालक्ष्मे च विद्महे विष्णुपत्ने च धीमहि तन्नो लक्ष्मी प्रचोदयात्
ॐ
शान्ति शान्ति सहनावतु सहनौ भुनक्तु सवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः देवकृतस्यैन सोभयजनमसि स्वाहा मनुष्यकृतस्यैन सोभयजनमसि स्वाहा पितृकृतस्यैन सोभयजनमसि स्वाहा आत्मकृतस्यैन सोभयजनमसि स्वाहा अन्यकृतस्यैन सोभयजनमसि स्वाहा अस्मत्कृतस्यैन सोभयजनमसि स्वाहा यद्विवाचनक्षञ्चलिनश्च क्रमतस्य भयजनमसि स्वाहा यत्समन्तश्च जाग्रतश्चैनश्च क्रमतस्य भयजनमसि स्वाहा यत्समुक्तश्च जाग्रतश्चैनश्च क्रमतस्य भयजनमसि स्वाहा यद्विद्वागुंसश्च विद्वागुंसश्चैनश्च क्रमतस्य भयजनमसि स्वाहा येन स येन सो भयजनमसि स्वाहा यद्वो देवाश्च क्रमजिह्वया गुरुमनसो वा प्रयूति देवमेदनम् अरा वायो नो अभिदुच्छुनायते तस्मिन् तदेनो वसवो निधेतनः स्वाहा कामो कार्षीन्नमो नमः कामो कार्षे कामः करोति नाहं करोमि कामः कर्ता नाहं कर्ता कामः कारयिता नाहं कारयिता एष ते कामकामाय स्वाहा मन्यकार्षे नमो नमः मन्युः कार्षेन्मन्युः करोति नाहं करोमि मन्युः कर्ता नाहं कर्ता मन्युः कारयिता नाहं कारयिता एष ते मन्यो मन्यवे स्वाहा तिराञ्जुहो निसरसागुं समिष्टान् गन्धार मम चित्ते रमन्त स्वाहा गावो हिरण्यम् धनमन्नपानगुम् सर्वेषामश्रियै स्वाहा श्रियम् च लक्ष्मीम् च पुष्टिम् च कीर्तिम् च नृण्यताम् బ్రహ్మణ్యం బహుపుత్రతాం శ్రద్ధా మేధే ప్రజా సందదాత స్వాహ తిలా కృష్ణాస్తిలా శ్వేతాస్తిలా సౌమ్యా వశానుగాః తిలా పునంతు మే పాపం యత్కించ దురితం మయి స్వాహ చోరస్యానం నవశ్రానం బ్రహ్మా గురు తల్పగః గోస్తేయగుం సరాపానం భ్రూణహత్యాతిలా శాంతిగుం శమయంత స్వాహ శ్రేశ్చ లక్ష్మీశ్చ పుష్టేశ్చ కీర్తించ నృణ్యతాం బ్రహ్మణ్యం బహుపుత్రతాం శ్రద్ధా మేధే ప్రజ్ఞాతు జాత వేద సందదాతు స్వాహ స్వస్తి ప్రజాభ్య పరిపాలయంతాం న్యాయేన మార్గేణ మహిమహేషాః గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు శాంతి శాంతి శాంతి.